एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रतिनिधिसभाया ह्यस्तनोपवेशे प्रतिपक्षिणो राप्रपा रासुपा दलयोः विरोधस्य मध्ये एतद् विक्रमवर्षीयस्य विनियोजन विधेयकस्य अन्तर्गतानि विभिन्न मन्त्रालयगत शीर्षकानि आधृत्य विमृष्टम् वर्तते। ह्यस्तनोपवेशे संघीय विषय सामान्य प्रशासनोर्जा जलस्रोत सेचन रक्षा स्वास्थ्य जनसंख्या पेयजल शिक्षा विज्ञान प्रविधि परराष्ट्र श्रमवृत्ति सामाजिक सुरक्षा गृह संचार सूचना प्रविधि मन्त्रालयानाम् विभिन्न शीर्षकानि आधृत्य विमृष्टम् वर्तते। विमर्शने व्यय न्यूनीकरणस्य प्रस्तावम् प्रस्तुवन्तः सांसदाः डा अमरेश कुमार सिंह प्रेम सुवाल अमनलाल मोदी प्रभु शाह माधव सापकोटा रणेन्द्र बराइली ज्ञानु बस्नेत सुवेदी उर्मिला माझी हितबहादुर तामाङ अमर बहादुर थापा छिरिङ लामो तामाङ नारायणी शर्मा चित्रबहादुर केसी दुर्गा राई च विभागीय मन्त्रीणाम बलवताम नेतृणाम च प्रभावेण आयव्ययकस्य विनियोजनेन आयव्ययकस्य क्रियान्वयने शंका वर्धिता स्थिति चर्चयन्त संशोधनम् विधातुम् अनुरुद्धवन्तः। प्रतिनिधिसभायाः अपरोपवेश अद्य पूर्वाह्नस्य एकादशवादने पुनर्वसति। ईरान देशे विद्यमानानाम् षोडशानाम् नेपालीनाम् उद्धारः भारत सर्वकारस्य सहयोगेन विधास्यते इति परराष्ट्र मन्त्रिणा डाक्टर आरजू राणा देउवा विधेय संसूचितमस्ति। परराष्ट्र मन्त्री डाक्टर राणा इजरायल ईरान देशयोः द्वन्द्वस्य वर्धनानन्तरम् ईरान देशे विद्यमानानाम् षोडशानाम् नेपालीनाम् उद्धाराय आत्मना भारत सर्वकारः अनुरुद्धोऽस्ति। तत्प्रति च भारत सर्वकारः अनुकूलोस्तीति च ह्य राष्ट्रिय समाचार समित्या सह सम्भाषणस्य क्रमे असूचयत। सर्वकारस्य निर्देशनस्य अनुसारेण भारतस्य कृते नेपालस्य राजदूतः डाक्टर शंकर शर्मा च ईरान देशे विद्यमानानाम् नेपालीनाम् उद्धाराय भारत सर्वकारेण सह नैरन्तर्येण सम्पर्कः विदधानो वर्तते इति च असौ असूचयत। तेहरान स्थितेन भारतीय दूतावासेन स्वस्य नागरिकाणाम् उद्धारः विधीयमानो वर्तते। अस्मिन् क्रमे भारतीय दूतावासेन सम्पर्के आगन्तुम् नेपाली जनाः अपि अनुरुद्धाः सन्ति। चितवन जनपदस्य राप्ती नगरपालिकायाः चतुर्थवडा क्षेत्रस्य खरे सेतोः निकटस्थे पूर्व पश्चिम राजमार्गे ह्य बसयान माइक्रो बसयानयोः परस्परम् संघटितयोः सतोः गर्भिण्या सहिताः सप्तजना मृताः वर्तन्ते। घटनायाम् चतुर्विंशतिर्जना आहताः सन्ति। भरतपुर सर्वकारीय चिकित्सालये उपचारस्य क्रमे पञ्चजना, पुरानो मेडिकल कलेज चिकित्सा महाविद्यालय उपचारस्य क्रमे जनद्वयम् च मृताः वर्तन्ते। भरतपुरे मृतेषु जनेषु मकवानपुरस्य हटियास्थानस्य सोमप्रसाद रूपाखेती, हेटौँडा उपमहानगरपालिकायाः पञ्चमवडा क्षेत्रस्य मैया कुमारी न्यौपाने, असत्या पिता आसन्न ऊनविंशति वर्षीया महिला, चन्द्रनिकापुर पालिकायाः षष्ठवडा क्षेत्रस्य आसन पञ्चत्रिंशत् वर्षीया सीता चौधरी, माइक्रो बसयान चालक मकवानपुरस्य हेटौँडा उपमहानगरपालिकायाः दशमवडा क्षेत्रस्य राजु थिङ, असत्या पिता आसन पञ्चविंशति वर्षीया एका महिला, आसन त्रयोविंशति वर्षीया पुरूषश्च वर्तन्ते। एवमेव पुरानो मेडिकल चिकित्सा महाविद्यालय मृतेषु जनेषु असत्या पिता आसन पञ्चत्रिंशत् वर्षीया गर्भिणी महिला, आसन चत्वारिंशत् वर्षीया पुरूषश्च वर्तेते। अन्येषाम् आहतानाम् जनानाम् भरतपुरस्य विभिन्नेषु चिकित्सालयेषु उपचारः जायमानोस्तीति चितवन जनपद प्रहरी कार्यालयेन ज्ञापितम् वर्तते। ह्य प्रातः धनगढ़ी स्थानात् काकर भिट्टा स्थानम् प्रति प्रस्थीयमानम् बसयानम्, मकवानपुरात् नारायणगढ़ स्थानम् प्रति प्रस्थीयमानम् माइक्रो बसयानम् च परस्परम् संघटितयोः सतोः दुर्घटना दुरापन्ना आसीत्। सम्पूर्ण पृथिव्याः मानवानां च कृते योग इति समाघोषेण ह्य अन्तर्राष्ट्रिय योग दिवसः नेपालेऽपि विभिन्नान् कार्यक्रमान् आयोज्य समायोजितो वर्तते। एतदवसरे शिक्षा विज्ञान प्रविधि मन्त्रालयेन ह्य ललितपुरे आयोजिते कार्यक्रमे प्रधानमन्त्री केपी शर्मा ओली योगः मानवजीवनस्य वैज्ञानिकः बौहायामिकश्च पक्षुस्तीत्यतः योगं दैनन्दिनस्य विषयं कारयितुम् अनुरुद्धवान्। कार्यक्रमे शिक्षा विज्ञान प्रविधि मन्त्री रघुजी पन्त पौरस्त्यचिन्तनं योगः ध्यानं च संसारस्य संयुक्त जीवनपद्धतेः रूपेण अग्रे वर्धितानि सन्तीति उदैरयत। कार्यक्रमे संस्कृति पर्यटन नागरिकोड्डयन मन्त्री बद्री प्रसाद पाण्डे योगः मानवानां कृते महत्वपूर्ण विषयोऽस्तीत्यतः पूर्णस्वस्थताया कृते अनेन सहयोगः प्राप्स्यतीति प्रावोचत। अवसरेऽस्मिन् भारतस्य महावाणिज्य दूतावासेन वीरगंजवर्तिना प्रादेशिकायुर्वेद वैकल्पिक चिकित्सालयेन वीरगंजस्थाने अन्यत्र च बहुषु स्थानेषु विभिन्नाः कार्यक्रमाः समायोजिताः आसन्। भारतस्य नयाँ दिल्लीस्थितेन नेपाली राजदूतावासेन बन्धकीकृतानां 35 नेपालीनाम् उद्धारः कृतो वर्तते। आकर्षक वृत्त्युपार्जनस्य प्रलोभेन भारतस्य उत्तराखण्ड राज्यस्य काशीपुरम् नीत्वा बन्धकीकृतानां 35 नेपालीनाम् उत्तराखण्ड राज्यस्य प्रहरिणः सहयोगेन उद्धारः कृतोऽस्तीति भारतस्य नेपाली दूतावासेन प्रकाशितायां विज्ञप्तौ लिखितम् वर्तते। उत्तराखण्ड प्रहरिणा घटनायां संलग्नान् कतिचिद् जनान् निगृह्य तेषाम् अनुसन्धानं विधीयमानं वर्तते। उद्धृताः जनाः नेपालं प्रेषिताः सन्तीति च ज्ञापितं वर्तते। पूर्व पश्चिम राजमार्गस्य अन्तर्गते दुम्कीवास दाउने मार्गखण्डे विपुल वस्तुवाहक यानानां सञ्चालनं निषिद्धमस्ति। दाउने मार्गखण्डे स्निग्ध मार्गस्य पथान्तरणे कृते मार्गे यानानां निमज्जनस्य च समस्यायाः पश्चात् मार्ग विभागेन प्रशासनेन च एवं निर्णयः कृतोऽस्ति। आयोजनया सूचनां प्रकाश्य मार्गखण्डेऽस्मिन् सायं 7 प्रातः 5 यावत् सर्वविधानां यातायात साधनानां सञ्चालनं निषिद्धं वर्तते। विज्ञप्तौ रात्रौ वैकल्पिक मार्गं प्रयोक्तुं च सर्वे अनुरुद्धाः वर्तन्ते। पेयजलमन्त्री प्रदीप यादवः काष्ठमण्डपोपत्यकायां 24 घण्टासु स्वच्छ पेयजलस्य आपूर्ति भविष्यति इति उक्तवान् वर्तते। काष्ठमण्डपस्य बुढा नीलकण्ठ नगरपालिकायाः चतुर्थवडा क्षेत्रे निर्मितायाः पेयजलायोजनाया उद्घाटन कार्यक्रमे मन्त्री यादवः एवम् अगदत् इति समाचारः।